इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य जनपद न्यायपालिकायाः राष्ट्रिय सम्मेलनस्य उद्घाटनं कृतवान्। उक्तवान् च यत् महिलाः विरुध्य अत्याचार सम्बद्धेषु प्रकरणेषु निर्णयाः यथाशीघ्रं भवेयुः। प्रधानमन्त्री अद्य दृश्य श्रव्य संवादतन्त्रेण त्रिभ्यः वन्दे भारत रेलयानेभ्यः हरितध्वजं प्रदर्शितवान्। लाओसे भारतीय दूतावासेन अन्तर्जालीय प्रवञ्चनाकेन्द्रेषु अवरुद्धाः 47 भारतीय नागरिकाः परित्राताः। आन्ध्रप्रदेशे मूसलाधारवृष्टेः कारणात् राज्यस्य विभिन्नेषु क्षेत्रेषु जनजीवनं पर्याकुलितं जातम्। गुजराते वृष्टो न्यूनतायाः अनन्तरं जलाप्लावस्थितिः सामान्या जायते। अपि च पेरिसे अनुवर्तमानासु पैरालम्पिक क्रीडासु अद्य रात्रौ भारतस्य प्रवीण कुमारः शल्यक्षेपस्पर्धायाः निर्णायके चक्रे श्रेष्ठं प्रदर्शनं विधाय पदकम् अर्जितुं यथाशक्ति प्रयतिष्यते। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् महिलासु अत्याचारः बालकानां सुरक्षा च समाजाय गभीरे चिन्तायाः विषयो वर्तते। असौ अद्य नवदिल्ल्याः भारतमण्डपे जनपद न्यायपालिकायाः द्विदिवसीय राष्ट्रिय सम्मेलनस्य उद्घाटनानन्तरम् एवम् उक्तवान्। श्रीमोदी उक्तवान् यत् यथाशीघ्रं महिलाः विरुध्य अत्याचार सम्बद्धेषु प्रकरणेषु निर्णयाः विधास्यन्ते, तदैव महिलानां सुरक्षा अपि सुनिश्चिता भविष्यति। श्रीमता मोदिना उक्तं यत् सर्वोच्च न्यायालयस्य 75 वर्षाणि लोकतन्त्रस्य जननीरूपेण भारतस्य गौरवं संवर्धयन्ति। तेनोक्तं यत् सर्वोच्च न्यायालयस्य 75 वर्षाणि भारतस्य संविधानस्य तस्य सांवैधानिक मूल्यानां च यात्रा वर्तते। असौ कथितवान् यत् भारतस्य जनाः कदापि सर्वोच्च न्यायालयं भारतीय न्यायिक प्रणालीं च प्रति प्रश्नं न उत्थापितवन्तः। अनेन प्रोक्तं यत् भारतीय लोकतन्त्रे न्यायपालिका संविधानस्य रक्षकत्वेन मन्यते। प्रधानमन्त्रिणा कथितं यत् एतेषां विधीनां भावना नागरिकः प्रथमः, सम्माननं प्रथमं, न्यायः प्रथमः इति वर्तते। अस्मिन् अवसरे प्रधानमन्त्री सर्वोच्च न्यायालयस्य स्थापनायाः 75 वर्षपूर्त्यवसरे प्रैषचिटिकायाः नाणकस्य च लोकार्पणं कृतवान्। स्वीये सम्बोधने भारतस्य मुख्य न्यायाधीशः न्यायमूर्तिः डीवाई चन्द्रचूडः उक्तवान् यत् सम्मेलनम् इदम् अस्मिन् वर्षे मार्चमासे कच्छनगरे आयोजितस्य अखिल भारतीय जनपद न्यायाधीश सम्मेलनस्य परिणामो वर्तते। प्रधानमन्त्री नरेन्द्रमोदी अद्य दृश्य श्रव्य संवादतन्त्रेण त्रिभ्यः वन्दे भारत रेलयानेभ्यः हरितध्वजं प्रदर्शितवान्। एतानि वन्दे भारत रेलयानानि सन्ति मेरठतः लखनऊ नगरं प्रति, मदुरैतः बेंगलुरू स्थानकं प्रति, अथ च चेन्नईतः नागरकोयलं प्रति। अस्मिन् अवसरे श्रीमता मोदिना कथितं यत् उत्तरतः दक्षिणं यावत् देशस्य विकासयात्रायाम् एकः नूतनाध्यायः योजितः। तेनोक्तं यत् वन्दे भारत रेलयानानां विस्तारेण सह देशः विकसित भारतस्य लक्ष्यं प्रति अग्रेसरति। प्रधानमन्त्री अवदत् यत् एतानि त्रीणि वन्दे भारत रेलयानानि महत्वपूर्णानि ऐतिहासिकानि नगराणि परस्परं संयोजयिष्यन्ति। असौ कथितवान् यत् वन्दे भारतम् आधुनिक भारतीय रेलयानस्य नूतनं मुखं वर्तते। प्रधानमन्त्रिणा कथितं यत् इदानीम् अशेषेऽपि देशे 2.5 लक्ष वन्दे भारत रेलयानानि चलन्ति, याभिः यात्रा सुखदा भवति। रेलमन्त्री अश्विनी वैष्णवः उक्तवान् यत् 26,000 रेलस्थानकानां पुनर्निर्माणं क्रियते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे ब्रुनई सिंगापुरयोः त्रिदिवसीय यात्रायै प्रतिष्ठते। नवदिल्ल्यां वार्ताहरान् संसूचयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवाला उक्तवान् यत् प्रधानमन्त्री मोदी ब्रुनई देशस्य सुल्तान हाजी हसनल बोल्किया इत्येतस्य निमन्त्रणम् अभिलक्ष्य आगामि मासे तृतीये दिवसे ब्रुनई दारुस्सलाम इत्यत्र गमिष्यति। असौ उक्तवान् यत् एषा कस्यापि भारतीय प्रधानमन्त्रिणः अस्य देशस्य प्रथमा द्विपाक्षिक यात्रा भविष्यति। श्रीमता जायसवालेन संसूचितं यत् स्वयात्रायाः द्वितीये चरणे श्रीमोदी सिंगापुरस्य प्रधानमन्त्रिणः लॉरेंस वोंग इत्येतस्य निमन्त्रणम् अभिलक्ष्य बुधवासरे सिंगापुरं सम्प्राप्स्यति। उपराष्ट्रपतिः जगदीप धनखड़ः उत्तराखण्डस्य द्विदिवसीय यात्रायै प्रतिष्ठते। असौ देहरादूननगरे भारतीय शिलातैलीय संस्थानस्य वैज्ञानिकैः अध्यापकैः विद्यार्थिभिः च सह संवादम् आचरिष्यति। श्रीधनखड़ः देहरादूने राष्ट्रिय भारतीय सैनिक महाविद्यालयम् अथ च ऋषिकेशे अखिल भारतीयायुर्विज्ञान संस्थानम् अपि गमिष्यति। असौ तत्र संस्थानस्य विद्यार्थिभिः अध्यापकैः च सह संवादम् करिष्यति। सूक्ष्म लघु मध्यमोद्योग मंत्री जीतनराम मांझी अद्य नवदिल्ल्यां अस्य वर्षस्य खादी महोत्सवस्य समीक्षोपवेशनं कृतवान्। खादी ग्रामोद्योगायोगः देशे खादी संवर्धनाय अस्य वर्षस्य अक्टूबर मासे अस्य महोत्सवस्य आयोजनं करिष्यति। उपवेशने श्रीमाझी खादी ग्रामोद्योग क्षेत्रस्य प्रदर्शनस्य अपि समीक्षां कृतवान्। असौ योजनानां कार्यान्वयन माध्यमेन अस्मिन् क्षेत्रे कृतप्रयासेषु तीव्रताम् आनेतुं बलं दत्तवान्। लाओसे भारतीय दूतावासेन बोकेयो प्रान्तस्य गोल्डन ट्रायंगल विशेषार्थिक क्षेत्रे एसईजेड इत्यत्र स्थितेषु अन्तर्जालीय प्रवञ्चना केन्द्रेषु अवरुद्धाः 47 भारतीय नागरिकाः परित्राताः। एकेन सामाजिकान्तर्जालपटलीयेन सन्देशेन दूतावासः एतद्विषये असूचयत्। बंगालखातेः उपरि वायोः अल्पापीडक्षेत्रकारणात् आन्ध्रप्रदेशे मूसलाधारवृष्टिः भवति। गतरात्रेः जायमानायाः वृष्टेः कारणात् राज्यस्य विभिन्नेषु क्षेत्रेषु जनजीवनं पर्याकुलितं जातम्। नगरेषु मार्गाः जलपूरिताः सन्ति। अधोवर्तिक्षेत्राणि जलमग्नानि जातानि। कुल्यासु जलधारासु च जलस्तरे वृद्धिः अभवत्। अशेषे अपि राज्ये जनपद प्रशासनेन अद्य विद्यालयेषु अवकाशः घोषितः। जलाप्लावकारणात् वाहनानां गमनागमनं प्रबाधितं जातम्। अत्रान्तरे अनुवर्तमानां प्रचण्ड वृष्टिम् अभिलक्ष्य तेलंगानायां ऋतुविज्ञान विभागेन रक्तवार्णिकी संचेतना प्रसारिता। गुजराते वृष्टौ न्यूनतायाः अनन्तरं जलाप्लावस्थितिः सामान्या भवति। जलाप्लाव प्रभावितेषु जनपदेषु साहाय्योद्धार कार्यम् अपि अवसानं गतम्। कच्छ सौराष्ट्रयोः कतिपय भागान् विहाय राज्यस्य कस्मिन् अपि क्षेत्रे विगतासु चतुर्विंशतिषु होरासु घनासार वृष्टिः न जाता। अन्ते क्रीडा वार्तासु पेरिसे अनुवर्तमानासु पैरालम्पिक क्रीडासु अद्य रात्रौ भारतस्य प्रवीण कुमारः शल्यक्षेपस्पर्धायाः निर्णायके चक्रे श्रेष्ठं प्रदर्शनं विधाय पदकम् अर्जितुं यथाशक्ति प्रयतिष्यते। अद्य तृतीये दिने अपि लक्ष्य वेधकेषु आशा वर्तते। अन्ते मुख्यवार्ताः पुनरेकदा। प्रधानमन्त्री नरेन्द्रमोदी अद्य जनपद न्यायपालिकायाः राष्ट्रिय सम्मेलनस्य उद्घाटनं कृतवान्। उक्तवान् च यत् महिलाः विरुध्य अत्याचार सम्बद्धेषु प्रकरणेषु निर्णयाः यथाशीघ्रं भवेयुः। प्रधानमन्त्री दृश्य श्रव्य संवादतन्त्रेण त्रिभ्यः वन्दे भारत रेलयानेभ्यः हरितध्वजं प्रदर्शितवान्। लाओसे भारतीय दूतावासेन अन्तर्जालीय प्रवञ्चना केन्द्रेषु अवरुद्धाः 47 भारतीय नागरिकाः परित्राताः। आन्ध्रप्रदेशे मूसलाधारवृष्टिकारणात् राज्यस्य विभिन्न क्षेत्रेषु जनजीवनं पर्याकुलितम्। अपि च पेरिसे अनुवर्तमानासु पैरालम्पिक क्रीडासु अद्य भारतस्य प्रवीणकुमारः यथाशक्ति प्रदर्शनं करिष्यति।